ॐ शुक्लां भरदरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवमुपास्महे सरस्वती नमस्तेऽस्तु वीणापुस्तकधारिणी हंसवाहनमारूढे विद्यादानं कुरुष्व मे ॐ श्रीगुरुभ्यो नमः हरिः ॐ सर्वेभ्यः नमः महोदय
धन्यवादः भगिनी सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे शुभदा भगिनी नमस्कारः
नमस्कारः
नमस्कारः भगिनी तत्र अन्ये
नमस्कारः महोदय वेदा अस्मि
हा वेदा भगिनी नमस्कारः वंशीसुधा भगिनी नमस्कारः
महोदय किञ्चित् कालं शृणोमि महोदय
अस्तु अस्तु भगिनी चिन्ता मास्तु भगिनी अस्तु अस्तु नमस्कारः अस्तु तर्हि आरम्भं कुर्मः अस्माकं प्रवर्तमानविषये अस्ति तत्र आत्मनेपदी धातूनां लङ्लकारः विधिलिङ्गकारश्च तस्मिन् विषये वयं पाठं पठितवन्तः तत्र धीरमाता विदुला इति पाठं पठितवन्तः अपि तत्र प्रायशः सर्वान् अंशान् अपि परिशीलितवन्तः इति मन्ये इदानीं केवलम् अभ्यासः ये अभ्यासाः सन्ति तान् कुर्मः किन्तु तस्मात् प्राक् पुनः तत्र पुनस्मरणं भवेत् इति अतः तत्र पुटसङ्ख्या अस्ति 102 103 तत्र तत्र आरम्भं कुर्मः अतः तत्र अस्तु तत्र नरेश महोदय तत्र लभते लब्धातोः तत्र लङ्लकाररूपाणि अपि तदनन्तरं विधिलिङ्गकाररूपाणि द्वयमपि एकवारं पठति वा महोदय
आम् आं महोदय लब् धातुः लङ्लकारे अलभत अलभेताम् अलभन्त अलभथाः अलभेथाम् अलभध्वम् अलभे अलभावहि अलभामहि अपि च लिङ्लकारे लभेत लभेयातां लभेरन् लभेथाः लभेयाथां लभेध्वं लभेय लभेवहि लभेमहि
हा समीचीनं धन्यवादः महोदय अस्तु इदानीं तत्र इदानीं सुजाता भगिनी तत्र वर्धते वृद्धधातुः तस्य लङ्लकारः तदनन्तरं विधिलिङ्गकाररूपाणि एकवारं पठति वा
पुटसङ्ख्या का महोदय
हा पुटसङ्ख्या 102 103 भगिनि 102 103 हा तत्र शोभा भगिनी नमस्कारः
नमस्ते महोदय
हा प्रिया भगिनी नमस्कारः
नमस्ते महोदय
नमस्कारः भगिनि 102 103 हा अस्तु
वृद्धधातु अस्ति अवर्धत अवर्धेताम् अवर्धन्त अवर्धथाः अवर्धेताम् अवर्धध्वम् अवर्धे अवर्धावहि अवर्धामहि इति
लङ्लकारः समीचीनम् इदानीं
वर्धेता वर्धेयाताम् वर्धेरन् वर्धेथाः वर्धेयथां वर्धेध्वं वर्धेया वर्धेवहि वर्धेमहि
हा उत्तमं भगिनि
धन्यवादः
उत्तमं भगिनि तत्र उच्चारणे तत्र महाप्राणः अल्पप्राणः तयोः मध्ये भेदः समीचीनम् आसीत् भगिनि धन्यवादः अस्तु धन्यवादः भगिनि हा अस्तु अग्रे तत्र शुभदा भगिनि इदानीं तत्र जायते इति तत्र तस्य रूपाणि वा वदति वा भगिनि
आं महोदय लङ्लकार अपि च विधिलिङ्लकार खलु
हा सत्यं हा
जायते अजायत अजायेताम् अजायन्त अजायथाः अजायेथाम् अजायध्वम् अजाये अजायवहि अजायावहि अजायामहि इतिलिङ्गलकारे जायेत जाये जायेयातां जायेरन् जायेथाः जायेयाथां जायेध्वम् जायेय जायेवहि जायेमहि
हा समीचीनं भगिनि धन्यवादः अग्रे तत्र वेदा भगिनी इदानीं तत्र शोभते
शोभते अशोभत अशोभेताम् अशोभन्त अशोभताः अशोभथाः अशोभेथाम् अशोभध्वम् अशोभे अशोभावहि अशोभामहि विधिलिङ्गकारे शोभेत शोभे यातां शोभेरन् शोभेथाः शोभेयाथां शोभेध्वं शोभेय शोभेवहि शोभेमहि
हा उत्तमं भगिनि तत्र कण्ठे तत्र विश्वासः दृश्यते भगिनि हा विश्वासेन वदति भवती समीचीनं
धन्यवादः
धन्यवादः अस्तु हा अग्रे तत्र प्रिया भगिनी इदानीं तत्र मोदते इति
अमोदत अमोदेताम् अमोदन्त अमोथाः अमोदेथाम् अमोदध्वम् अमोदे अमोदावहि अमोदामहि विधिलिङ्ग् मोदेत मोदेयात्तां मोदेरन् मोदेथाः मोदेयाथां मोदेध्वम् मोदेय मोदेमहि मोदेवहि मोदेमहि
हा समीचीनं भगिनि हा उत्तमं भगिनि हा अस्तु अग्रे तत्र शोभा भगिनि इदानीं तत्र रमते इति
आं महोदय अरमत अरमेताम् अरमन्त अरमन्ता अरमन्थाः अरमन्दे अरमन्
एकवचने भगिनि पुनः तत्र मध्यमपुरुषे एकवचने
रमते
अरमथाः अरमताः
अरमेथाम् अरमध्वम् अपि च अरमे अरमावहि अरवा अरमा महि
हा समीचीनं हा
विधिलि रमेता रमेयातां रमेरन् रमेथाः रमेयाथां रमेध्वं रमेय रमेवहि रमेमहि
हा समीचीनं भगिनि हा तत्र उत्तमपुरुषे एकवचने रूपं किम् आसीत्
उत्तमपुरुषे रमेय
विधिलिङ्गे रमेय हा समीचीनं भगिनि हा रमेय समीचीनं भगिनि हा अस्तु इदानीं तत्र हा उषा भगिनी इदानीं तत्र सेवते इति
आं महोदय सेवते लङ्गलकार सेवत सेवेथां सेवेतां सेवन्त सेवेताः सेवे सेवेथां सेवध्वं सेवे सेवावहि सेवामहि इति लङ्गलकाररूपाणि विधिलिङ्गकारे क्षम्यतां महोदय आसेवत आसेवेताम् आसेवन्त
पुनः भगिनि पुनः आसेवत
आसेवत आसेवेताम् आसेवन्त आसेवेताः आसेवेथां
तत्र न मध्यमपुरुषे एकवचने रूपं किम्
आसेवताः
असेवताः सेवेतः न
आसेवताः आसेवेथां
न असेवेथाम् असेवेथाम्
आसेवध्वम् आसेवे आसेवावहि आसेवामहि
समीचीनं
विधिलिङ्ग् विधिलिङ्ग्लकारे सेवत सेवेयातां सेवेरन् सेवे
तत्र भगिनि भगिनि एक प्रथमपुरुषे एकवचने रूपं किं
सेवेत
सेवेत हा अच्छा अस्तु
सेवेत सेवेयातां सेवेरन् सेवेथाः सेवेयाथां सेवेध्वं सेवेय सेवेवहि सेवेमहि इति.
हा समीचीनं भगिनि. अस्तु इदानीं गीताञ्जलि भगिनि तत्र कम्पते
कम्पते. अस्तु महोदय. अकम्पत अकम्पेताम् अकम्पन्त अकम्पथाः अकम्पेथाम् अकम्पध्वम् अकम्पे अकम्पावहि अकम्पामहि. विधिलिङ्गे कम्पेत कम्पे यातां कम्पेरन् कम्पेथाः कम्पेयाथां कम्पेध्वं कम्पेय कम्पेवहि कम्पेमहि.
हा समीचीनम्. अस्तु अस्तु इदानीं तत्र पुनस्मरणं जातम्. एक इदानीं तत्र प्रायशः तत्र प्रथम अभ्यासः यः अस्ति पुटसङ्ख्या 103 मध्ये तद् समापितवन्तः. इदानीं तत्र अग्रे गन्तुं शक्नुमः, किन्तु एक लघु अभ्यासः कुर्मः तत्र अत्रैव. तत्र वर्तते इति स्वीकुर्मः. वर्तते अत्र अस्तु तत्र. हा प्रिया भगिनी तत्र सः इति उपयुज्य प्रथमपुरुषे रूपत्रयं सः तौ ते इति उपयुज्य लङ्लकरूपाणि वदति वा वर्तत इति.
सः अवर्तत तौ अवर्तेतां ते अवर्तन्त.
हा समीचीनं भगिनि. हा अस्तु इदानीं तत्र उषा भगिनी इदानीं तत्र मध्यमपुरुषे त्वं
वर्तते न महोदय?
वर्तते एव.
त्वम् अवर्तथाः युवाम् अवर्तेथां यूयम् अवर्तध्वम्.
हा समीचीनं. हा इदानीं नरेश् महोदय उत्तमपुरुषे.
उत्तमपुरुषे अहम् अवर्ते आवाम् अवर्तावहि वयम् अवर्तामहि.
हा समीचीनम्. हा इदानीम् अग्रे तत्र अस्तु रमते. अस्तु गीताञ्जलि भगिनी सा रमते इति स्वीकृत्य वदतु पुनः लङ्लकारः.
सा
रमते
वा धातु. सा अरमत सा ते अरमेतां ताः अरमन्त.
तावदेव समीचीनं. प्रथमपुरुषे एव. अस्तु इदानीं तत्र शुभदा भगिनी मध्यमपुरुषे रमन्त रमते इति धातु एव.
मध्यमपुरुषे लङ्लकारः. त्वं अरमथाः त्वं युवां यूयं युवाम् अरमेथां यूयम् अरमध्वम्.
हा समीचीनम्. अस्तु इदानीं तत्र शोभा भगिनी इदानीं न शोभा भगिनी मास्तु इदानीं वेदा भगिनी तत्र उत्तमपुरुषे.
उत्तमपुरुषे अहम् अरमे अहम् अरमे आवां. श्रुणुते वा महोदय?
हा श्रूयते श्रूयते भगिनि. हा
अहम् अरमे अहम् आवां वयम् आवाम् अरव आवाम् अरब रमे अरमामहि अरमावहि अरमावहि रमते अरम वयम् अहम् आवां वयम् अरमामहि अरमामहि
समीचीनं.
आवाम् अरमावहि वयम् अरमामहि.
हा समीचीनं भगिनि. हा अस्तु उत्तमम्. इदानीं तत्र शोभ भगिनि, इदानीं तत्र भिजिलिङ्गकारः कम्पते इति प्रथमपुरुषे एव. तत्र
प्रथमपुरुषे एव
प्रथमपुरुषे तत्र पत्रं कम्पते,
पत्रं
कम्पते अथवा पर्णं, पर्णं कम्पते इति स्वीकुर्मः. पर्णं कम्पते
अस्तु. पर्णं पर्णं कम्पेत इति किल महोदय?
कम्पेत विजिलिङ्ग् विजिलिङ्ग्
पर्णं कम्पेत. पर्णे कम्पेयतां, पर्णानि कम्पेरन्,
पर्णानि कम्पेरन्. समीचीनं. अस्तु इदानीं तत्र इदानीम् अग्रे तत्र अस्तु. सुजाता भगिनी इदानीं तत्र मध्यमपुरुषे विधिलिङ्ग् कम्पते.
आम् आं महोदय. कम्पते
त्वं,
त्वं कम्पेताः युवां कम्पेयाथां यूयं कम्पेध्वम्.
यूयं कम्पेध्वं समीचीनम्. अस्तु अग्रे नरेश महोदय प्रथमपुरुष उत्तमपुरुषे.
अहं महोदय उत्तमपुरुषे अहम् अहं कम्पेय आवां कम्पे कम्पावहि.
न न कम्पे कम्पे एकारः अस्ति सर्वत्र.
कम्पेवहि वयं कम्पेमहि.
समीचीनं. अस्तु अग्रे उषा भगिनी इदानीं तत्र लभते इति विधिलिङ्गकारि लकारे तत्र प्रथमपुरुषः तत्र सः इति एव स्वीकुर्मः. सः इति सः लभते किन्तु इदानीं विधिलिङ्ग्
विधिलिङ्ग् अस्तु. सः लभेत, तौ लभेयातां, ते लभेरन्.
समीचीनम्. अस्तु अग्रे तत्र गीताञ्जलि भगिनी इदानीं तत्र मध्यमपुरुषे
लब्धातु महोदय.
लब्धातु.
त्वं लभेथाः यूयं लभेयाथां युवां लभेयाथां यूयं लभे लभेद्धध्वम्
लभेध्वं लभेध्वं
लभेध्वं.
समीचीनं. अस्तु समीचीनं. प्रिया भगिनी उत्तमपुरुषे
आम् क्षम्यतां महोदय. अहं लभेय आवां लभेवहि वयं लभेमहि.
समीचीनं. अस्तु इदानीं तत्र एतावत् प्रायशः तत्र कः अथवा का न कृतवती प्रायशः वेदा भगिनी विधिलिङ्ग् न कृतवती खलु?
न महोदय न.
अस्तु इदानीं तत्र अतः ध्यायते इति स्वीकरोतु तत्र सा ध्यायते इदानीं विधिलिङ्ग्
सा जायते वा? सा जायेत, सा जायेत, सा तेताः, ते जायेतां, ते तां जायेतां, ताः जायेरन्.
न न न पुनः सा जायेत,
सा जायेत, सा ते ताः, ते जाये यातां, ते जाये यातां, ताः जायेरन्.
समीचीनं.
अस्तु
समीचीनम्. अस्तु एतावत् सर्वे कृतवन्तः खलु तत्र कोऽपि न कृतवती वा अथवा कृतवान् वा एतावत् तत्र विधिलिङ्गे सर्वे कृतवन्तः इति मन्ये तत्र. अस्तु अस्तु अतः तत्र अस्तु इदानीं तत्र अभ्यासः जातः इति मन्ये अतः तत्र कोऽपि वदतु तत्र शोभा भगिनी तत्र संक्षिप्तरूपेण एकवारं वदति वा तत्र भेदः कः तत्र लङ्लकारे लङ्लकारः अपि विधिलिङ्गकार तयोः मध्ये कुत्र भेदः वर्तते इति
आम् महोदय तत्र विधिलिङ्गकारे सर्वाणि नवप्रत्ययाणि प्रत्ययानाम् अथवा प्रत्ययेषु एकारः दृश्यते
हा एकारः दृश्यते समीचीनं
तत् विधिलिङ्गी मुख्यविषयम् अपि च लङ्गी अकारः आदौ सर्वत्र दृश्यते इति
हा समीचीनं हा
अपि च तत्र प्रथमपुरुषे मध्यमपुरुषे द्विवचने किञ्चित् साम्यम् अस्ति तत्र वर्तेताम् अवर्तेताम् अवर्तेथाम् इति किन्तु विधिलिङ्गी यकारः आगच्छति तत्र वर्तेयातां वर्तेयाथाम् इति अपि च उत्तमपुरुषे द्विवचने बहुवचने साम्यम् अस्ति तत्र अवर्तावहि अवर्तामहि इति लङ्लकारे विधिलिङ्लकारे वर्तेवहि वर्तेमहि इति भवति अपि च मध्यमपुरुषे एकवचने अपि साम्यम् अस्ति तत्र अवर्तथाः लङ्लकारे विधिलिङ्लकारे वर्तेथाः इति तत्रापि बहुवचने अपि
हा समीचीनम् अस्तु इदानीं तत्र उषा भगिनी तत्र प्रथमपुरुषे बहुवचने तत्र भेदः अस्ति वा विधिलिङ्लकारे अपि लङ्लकारे
लङ्लकारे प्रथमपुरुष बहुवचनं
बहुवचनं बहुवचनं हा
आं महोदय एकारः आगच्छति विधिलिङ्लकारे लङ्लकारे
अकारः आगच्छति किन्तु प्रथमपुरुषे बहुवचने रूपं साम्यम् अस्ति वा अथवा भेदः अस्ति वा
भेदः अस्ति महोदय
हा तत्र वृद् धातुः तत्र अथवा लब् धातुः स्वीकुर्मश्चेत् तत्र प्रथमपुरुषे बहुवचने अलभन्ता इति अस्ति किन्तु
विधिलिङ्गे लभेरन्
लभेरन् अतः तत्र रकारः अस्ति लभे रन् इति अस्ति खलु रकारः किन्तु अलभन्त इति अस्ति तत्र एव सावधानम् अपेक्षितम् अस्ति अस्तु समीचीनम् अस्तु अतः तत्र इदानीं तत्र प्रथम अभ्यासः अपि कृतवन्तः अतः तत्र अग्रे वयं अग्रे गन्तुं शक्नुमः अतः तत्र पेज् 104 मध्ये इदानीं द्वितीय अभ्यासः आरम्भं कुर्मः तत्र हा प्रियाभगिनी आरम्भं करोति वा
महोदय एतेषु वाक्येषु प्रयुक्तानां लट् लकाररूपाणां स्थाने लङ् लकाररूपाणि उपयुज्य वाक्यानि पुनः लिखत यथा छात्राः संस्कृतेन भाषन्ते छात्राः संस्कृतेन अभाषन्त अत्र अस्तु त्वं लज्जसे त्वं अलज्जेथाः
लङ्लकारः खलु लङ्लकारे अकारः अस्ति एकारः नास्ति
अलज्जथाः
हा अलज्जथाः अकारः अस्ति एकारः केवलं तत्र द्विवचने तत्र प्रथमपुरुषे मध्यमपुरुषे द्विवचने एकारः अस्ति पुनः एकवारं वदतु भगिनि पूर्णवाक्यं
त्वं लज्जसे त्वम् अलज्जथाः
हा समीचीनं भगिनि अस्तु धन्यवादः अस्तु अग्रे नरेश महोदय द्वितीयवाक्यं
महोदय क्षम्यतां सर्वाणि रूपाणि यदि वदन्ति तत्र अभ्यासः भवति महोदय ममापि
सत्यं भगिनि किन्तु तद् पूर्वं कृतवन्तः इदानीं अग्रिम अभ्यासे तत् कर्तुं प्रयत्नं कुर्मः भगिनि उत्तमः विचारः एव अस्तु
यतोहि तत्र अभ्यासः सम्पूर्णं भवति
सत्यं सत्यं हा हा सत्यं कुर्मः भगिनि तदपि कुर्मः अस्तु अग्रे नरेश
असतः भावः न विद्यते असतः भावः न अविद्यत
न अविद्यत। अस्तु समीचीनम्। अस्तु अग्रे शोभा भगिनी अग्रे।
महोदय तत्र त्वं लज्जसे इत्यत्र किम् अवदत्?
अलज्जताः।
अस्तु अस्तु महोदय, धन्यवादः। मनसः निग्रहं सुदुष्करं मन्ये। अस्तु मनसः निग्रहं सुदुष्करं मन्ये इति उत्तमपुरुषे एकवचने, तत्र लङ्लकारे अमन्ये इति भवति वा महोदय?
इति चिन्तयामि भवति वा खलु?
हा तत्र वर्ते अवर्ते भवति चेत् अमन्ये
अमन्ये।
अस्तु महोदय, धन्यवादः।
तत्र मनसः इति विभक्ति का?
तत्र षष्ठीविभक्ति, मनस् इति हलन्तप्रातिपदिकं, मनसः इति षष्ठीविभक्तिः भवति तत्र।
अपि तत्र केवलं दुष्करम् इति न लिखितं, किन्तु सुदुष्करम् एम्फसिस्। तत्र बहु कठिनम् इति ते वक्तुम् इच्छन्ति, अतः केवलं दुष्करम् इति न, मनसः निग्रहं सुदुष्करम् इति दत्तम्। अस्तु अग्रे उषा भगिनी।
आं महोदय। श्रद्धावान् ज्ञानं लभते। श्रद्धावान् ज्ञानं लभते, श्रद्धावान् ज्ञानम् अलभत।
हा अलभत, समीचीनं।
महोदय महोदय, द्वितीयबिन्दुः असतः षष्ठीविभक्ति अस्ति न महोदय तत्र?
हा सत्यं भगिनि, हा सत्यं भगिनि, तत्र सत् सत् इति प्रातिपदिकं, प्रथमविभक्तिरूपं किम्?
असन् इति।
हा असत् इति, असत् इति तस्य प्रथमविभक्तिरूपम् असन्।
असन्
तत्र सन् सन्तौ सन्तः, तत्र असत् इति तत् किम् अस्ति? सत् सत् इति, सत् इति रूपं स्वीकुर्मः, तस्य पूर्वम् अकारः तत्र न नै इति, तत्र न इति भवति, तत्र सत् नास्ति इति, अतः तत्र हा तत्र सत् अस्ति चेत् सत् तु किमस्ति? सत् इति पदस्य तत्र निर्माणं कथं भवति? सत् इति कस्मात् धातोः आगतं? सत् इति पदं
धातुः अस्ति, अस् धातु महोदय।
हा समीचीनं भगिनि, अस् धातोः सन्। हा समीचीनं भगिनि, हा यथा तत्र पठति इति पठत्, अपि पठन् इति वक्तु, तादृशम् अस् अस् इति अस् धातोः रूपम् अशत्रन्तरूपम् अस्ति, सत् इति प्रातिपदिकं सन् इति प्रथमविभक्तिरूपं, समीचीनं भगिनि। हा अस्तु अग्रे तत्र हा शुभदा भगिनी अग्रे।
त्वं प्रज्ञावान् भाषसे, त्वं
प्रज्ञावादान् इति अस्ति वा?
प्रज्ञावादान्, क्षम्यतां क्षम्यतां, त्वं प्रज्ञावादान् भाषसे, त्वं प्रज्ञावादान् अभाषताः।
अभाषताः, समीचीनं, धन्यवादः। अस्तु अग्रे सुजाता भगिनी।
आं महोदय, भवन्तौ
न न न युवाम् इति अस्ति भगिनि,
युवां न महोदय।
ओ अस्तु, भवत्याः पुस्तकं नूतनपुस्तकं वा भगिनि?
आम् आं महोदय।
अस्तु अस्तु, यद् वाक्यमस्ति तदेव पठतु भगिनि। हा तर्हि,
भवन्तौ एतं हतं मन्यते।
मन्येते,
अस्तु
मन्येते,
मन्येते,
भवन्तौ एतं हतं मन्ये यतां।
न न न, एतत्तु अकारः भवेत्, अकारः भवेत्, यतोहि अमन्येताम् अमन्येताम् न न अवन् क्षम्यतां क्षम्यतां भगिनि, तत्र किं दत्तम् आसीत्, भवतः भवन्तः
भवन्तौ एतम्
भवन्तौ द्विवचने भवन्तौ एतं हतं
हतं मन्येते
मन्येते अस्तु अतः भवन्तौ इदानीं नूतनवाक्यं भवन्तौ एतं हतं
हतं मन्ये
अकारः अमन्येताम् अमन्येताम् समीचीनम् अमन्येताम् समीचीनं भगिनि धन्यवादः भगिनि अस्तु अग्रे वेदा भगिनि
आम् महोदय सर्वे विस्मिताः त्वां वीक्षन्ते सर्वे विस्मिताः त्वां वीक्षन्ते अवीक्षन्त वीक्षन्ते बहुवचनरूपमस्ति अवीक्षन्त
पूर्णवाक्यं सर्वे
सर्वे विस्मिताः त्वाम् अवीक्षन्त
हा इति समीचीनं भगिनि
महोदय वीक्षते इति वियोगः ईक्ष अस्ति किल ततः
धन्यवादः 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 भगिनि अहमपि अहं न चिन्तितवान् उत्तमं भगिनि समीचीनं उत्तमं भगिनि अतः वेदा भगिनि पुनः
पुनः वदतु किं किं वदसि
तत्र भगिनि तत्र प्रिया भगिनी उक्तवती तत्र वीक्षते इति धातुः उपसर्गसहितधातुः अस्ति वियोगः ईक्षधातुः अस्ति उपसर्गः
अईक्षन्त अईक्षन्त योग वि ईकारस्य व्ययि
व्यक्ष्यन्त 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 वियोगः वियोगः तत्र ईकारः तत्र किं भवति भगिनि एतत् कुर्मः प्रथमतया क्षम्यतां तत्र मम दोषः एव तत्र मम दोषः एव तत्र प्रथमतया ईक्षति इति तस्य रूपं कुर्मः ईक्षति इति न ऐक्षन्त न भवति यतोहि अचन्त तत्र अकारः तत्र अच्वर्णः आदौ अस्ति तत्र ईक्षते इति तत्र अकारयोगः इकारः किं भवति
ओ तद् ओके अकारयोग ईकार एकार भवति एक्षन्त
तत्र आगमः भवति महोदय आडजातीनां
अतः रूपं किं भवति भगिनि
आडजादीनाम्
ई इति अस्ति खलु अजादि अतः आद्योगः आद्योगः ईक्षन्त आयोगः ईक्षन्त तत्र आडजादीनाम् इत्यस्य वृद्धिः भवति अतः ऐक्षन्त इति भवति व्यैक्षन्तम् इति व्यैक्षन्त
क्षन्त इति भवति प्रिया भगिनि धन्यवादः भगिनि
महोदय यैक्षन्त वकारः याकारः ऐकारः यै
सत्यं भगिनि वकारः यकारः ऐकारः व्यैक्ष्यन्त इति समीचीनं प्रिया भगिनी धन्यवादः तत्र नो चेत् दोषः आसीत्
धन्यवादः शुभदा क्षम्यतां शुभदा उक्तवती
ओ अस्तु 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 शुभदा भगिनी धन्यवादः भगिनि धन्यवादः अस्तु समीचीनं वि उपसर्ग इति तत्र अहं तत्र ज्ञातवान् किन्तु यथा वाक्यम् उक्तमासीत्
सावधानं न योजित तत्र
तत्र अस्तु समीचीनम् अस्तु तर्हि अग्रे तत्र
मम पुस्तके लोकन्ते इति
अतः यतोहि
क्लिष्टः
सुलभमस्ति इति लोकन्ते दत्तवन्तः. अस्तु, लोकन्ते अस्ति चेत् तत्र अलोकन्त इति सुलभमेव खलु. उत्तमम्. अस्तु तर्हि अग्रे नरेश महोदय अग्रिमम्.
महोदय यूयं श्रद्धया विन्ताः यजध्वे. अत्र यजध्वे अस्ति अयजध्वं यूयं श्रद्धयान्विताः अयजध्वम्.
हा, इति समीचीनं, समीचीनम्. अयजध्वम् अयजध्वम्. अस्तु, अग्रे गीताञ्जलि भगिनी.
मम पुस्तके दत्तम् अहं घोरं युध्ये.
अस्तु भगिनि, तदेव करोतु.
अहं घोरं युध्ये. अहं घोरम् अयुध्येय वा न अयुद्धे.
अयुध्ये वा, तावदेव.
अयुध्ये, अयुध्ये. अहं घोरम् अयुध्ये.
अयुध्ये, अस्तु, समीचीनम्. अस्तु, तत्र इदानीं तत्र शोभा भगिनी अग्रे.
अस्माकं पुस्तके कुत्र महोदय?
दशमः.
दश, अस्तु, धन्यवादः. आवाम ईश्वरं भजावहे. अस्तु, तत्र भजावहे लङ्लकारे किं भवति? द्विवचने अस्ति. अभजावहि इति भवति किल. आवाम् ईश्वरम् अभजावहि
समीचीनम्
इति भवति.
अस्तु, अग्रे शुभदा भगिनि.
नवमं करोमि वा महोदय?
अस्तु, करोतु, करोतु भगिनि.
वयं घोरं तपामहे. वयं घोरं तपामहे इति तस्य वयं घोरम् अतपामहि.
अतपामहि, समीचीनं. वयं घोरम् अतपामहि. तत्र घोरम् इति किं भवति? तत्र
क्रियाविशेषणं.
कीदृशतपं? घोरं कर्मपदं नास्ति, कर्मपदं साक्षात् नास्ति, किन्तु क्रियाविशेषणं कीदृशतपः इति. हा, समीचीनं भगिनि, समीचीनम्. अस्तु, अग्रे प्रिया भगिनि.
एकादशमः करोमि वा? अस्तु, सर्वेपि स्वकर्म कुर्वते. सर्वेपि स्वकर्म अकुर्वत.
अकुर्वत, तत्र अकुर्वत, तत्र इदानीं तत्र एतद् रूपं वयं पूर्वं न दृष्टवन्तः खलु भगिनि? यतोहि तत्र कुरुते कुरुत
करोति इत्यस्य अस्ति. अत्र कुर्वते,
तत्र एतत् साधारणरूपं नास्ति इति मन्ये खलु?
आं महोदय, आम्.
तत्र यदि जानाति तत्र एकवारं नवरूपाणि वदति वा? तत्र
लङ्लकारे,
लङ्लकारे.
अस्तु, अकुर्वत, अकुर्वेताम्, अकुर्वन्त, अकुर्वथाः, अकुर्वेथाम्, अकुर्वध्वम्, अकुर्वे, अकुर्वावहि, अकुर्वामहि.
अस्तु, अस्तु, समीचीनम्. अस्तु, अग्रे तत्र उषा भगिनी अग्रे.
आं महोदय. मानवः देवम् अभ्यर्च्य सिद्धिं लभते. मानवः देवम् अभ्यर्च्य सिद्धिम् अलभत.
अलभत, तत्र देवम् अभ्यर्च्य सिद्धिम् अलभत. तत्र अतः किम् अस्ति तत्र वाक्ये? अभ्यर्थ्य इति अस्ति खलु?
आं महोदय.
हा अतः अर्थः कः?
अर्चनः कृत्वा सिद्धिं प्राप्नोति.
हा अतः प्रथमक्रिया
देवस्य
अर्चनम् तत्र अभ्यर्थ्य इति प्रथमक्रिया तदनन्तरं लभते. हा किमर्थं तत्र लेप् अस्ति न तु चुमान्तरूपम्?
द्विकर्मकः अस्ति महोदय तत्र.
न अभ्यर्थ्य इति अस्ति, लेप् किमर्थं लेप् अस्ति?
ओ लेप् किमर्थं
कदा लेप् आगच्छति?
द्वि
उपसर्ग उपसर्ग तत्र अभ्यर्थ्य इति तत्र मध्ये उपसर्ग अस्ति खलु, अतः तावदेव. अस्तु अग्रे तत्र भेदा भगिनी अस्ति.
भवन्तः कृष्णं भजन्ते, भवन्तः बहुवचनं कृष्णं भजन्ते बहुवचने अस्ति, भवन्तः कृष्णं अभजन्त.
हा समीचीनम्, अभजन्त समीचीनम्. अस्तु अग्रे गीताञ्जलि भगिनि.
महोदय, आत्मकारणात् पचन्तः अघं भुञ्जते. आत्मकारणात् पचन्तः अघम् अभुञ्जत.
भगिनी तत्र एतत् न स्मरामि, कोऽपि दृष्ट्वा वदति वा तत्र रूपं किं भवति इति? अभुञ्जत एव वा?
आं महोदय, अभुञ्जत भुञ्जते भुञ्जते अभुञ्जत इति रूपं न
भुञ्जते इति धातु बहुवचनमस्ति.
भुज् धातुः, हा भुज् धातुः कोऽपि दृष्ट्वा एकवारं वदतु.
भुज् भुञ्ज
महोदय, एतत् बहुवचनरूपमस्ति, किमर्थं चेत् भुञ्जते भुञ्जाते भुञ्जते इति बहुवचनम्.
हा बहुवचनम्, अतः मम क्लेशः.
आभुङ्क्त अभुञ्जाताम् अभुञ्जन्त आभुङ्क्ताः अभुञ्जाताम् अभुङ्गध्वम् अभुञ्जि अभुञ्जवहि अभुञ्जमहि इति.
अस्तु अतः गीताञ्जलि भगिनी ततः इदानीं अतः तत्र
अत्र आत्मकारणात् पचन्तः अघम् अभुजत अभुजत् इति अस्ति महोदय.
अभुजत भगिनि
पुनः एकवारम् उषा भगिनी पुनः एकवारं तत्र प्रथमपुरुषे रूपाणि रूपत्रयं वदतु भगिनि. प्रथमपुरुषे
लङ्लकारे आभुङ्क्त अभुञ्जाताम् अभुञ्जत
अभुञ्जत. अस्तु
भुङ्क्ते भुञ्जाते भुञ्जन्ते भुजुधातु रूपं भुङ्क्ते भुञ्जाते भुञ्जते.
अस्तु इदानीं
बहुवचनमस्ति भुञ्जते.
हा सत्यं भगिनि, सत्यं भगिनि, अतः एव तत्र क्लेशः आसीत्. अस्तु गीताञ्जलि भगिनि इदानीं.
महोदय, भुज् धातु
भुज्
रुदादिगणे
अस्ति,
रुदादिगणे
तदेव नकार आयाति मध्ये.
अस्तु, रुदादि लङ् अस्ति. अस्तु अस्तु भुञ्जते.
उषा भगिनी पुनः एकवारं वदतु रूपम्.
आं महोदय, कर्तरि लङ् लकार आत्मनेपदम् अभुङ्क्त अभुञ्जाताम् अभुञ्जत.
करेक्ट्.
अभुङ्क्ताः अभुञ्जाता
भगिनी भगिनी उषा भगिनी केवलं प्रथमपुरुषे बहुवचने रूपं लङ्लकार
अभुञ्जत
अभुञ्जत महोदय
अभुञ्जत. हा अस्तु गीताञ्जलि भगिनी इदानीं.
अस्तु अस्तु, आत्मनेपदी रूपम् अत्र भुञ्जते
इदानीं वाक्यं पूर्णवाक्यं वदतु
वाक्यम् आत्मकारणात् पचन्तः अघम् अभुङ्क्त इति
न न
बहुवचने
बहुवचने रूपं किम् आसीत्
अभुञ्जत अभुञ्जत
अभुञ्जत इति एव अस्तु किन्तु बहुवचने अस्ति हा अस्तु
तस्य अर्थः कः महोदय आत्मकारणम्
हा तत्र अघम् इति तत्र अहं चिन्तयामि भगिनि तत्र यत् तत्र अनघम् अनघम् इत्युक्ते तत्र पापरहितम् इति तादृशम् अस्ति इति मन्ये तत्र अनघम् अनघा इति नाम अस्ति खलु तत्र
अत्र अघं भुञ्जते
हा अघम् इत्युक्ते तत्र हा सम्यक् यत् नास्ति इति तत्र
आत्मकारणात् पचन्तः अघं भुञ्जते
पचन्तः इत्युक्ते ये पचन्तः अस्ति अघं भुञ्जते
अघं किम् अस्ति अघं
हा तत्र द्रष्टव्यं भगिनि तत्र मया सम्यक् न
अत्र किम् अस्ति महोदय एतस्य अर्थं वयं सर्वे खाद्यपदार्थं सर्वे पचन्तः स्मः परन्तु अत्र ये पापं पचन्ति ते आत्मकारणात् अघम् इत्युक्ते पापः एव सः खादन्ति
ओ अस्तु 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 पापः एव तत्र ते भुङ्क्ते अस्तु 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 ते भुञ्जते अस्तु 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 अतः तत्र पापस्य फलम् इति अर्थः प्रिया भगिनी धन्यवादः भगिनी धन्यवादः
अत्र अस्ति ये पचन्तः ये आत्म तस्य आत्मकारणात् ये कर्म कुर्वन्ति ते तस्य कारणात् अघमित्युक्ते पापः पापः एव खादन्ति इति अत्र अस्ति यथा वयं खाद्यपदार्थं सर्वे पचित्वा खादामः तदेव अत्र ते पापः एव खादन्ति इति
अस्तु समीचीनं भगिनि धन्यवादः धन्यवादः अस्तु इदानीम् अग्रे तत्र धन्यवादः अग्रे तत्र नरेश महोदय तत्र अन्तिमं कर्तुम् इच्छति वा
आं महोदय मनुष्याः भगवतः वर्त्म अनुवर्तन्ते
इदानीं उपसर्गः अस्ति
उपसर्गः अस्ति अनु लङ्लकार वर्तन्ते लङ्लकार अवर्तन्त अनु योग अवर्तन्त अन्ववर्तन्त
अन्ववर्तन्त
अन्ववर्तन्त मनुष्याः भगवतः वर्त्म अन्ववर्तन्त
तत्र वर्त्म नाम किं वर्त्म नाम
करोति
न न वर्त्म नाम मार्गः
मार्गः वर्त्म
यत् यत् मार्ग यः मार्गः भगवता दर्शितः तं मार्गम् तं मार्गं वयम् अनुसरामः तत्र अनुवर्तनं मनुष्याः भगवतः वर्त्म वर्त्म नाम मार्गः अन्यपदं किमस्ति मार्गः इति अर्थः
पन्त
मार्ग पथ
पथ
तदपि अस्ति अस्तु अतः तत्र वर्त्मन् वर्त्मन् इति नकारान्तपदं वर्त्म इति अस्तु हलन्तपदम् अस्तु समीचीनम् अतः इदानीम् अग्रे करामः अस्तु अग्रे सुजाता भगिनी अग्रे आरम्भं करोति वा तृतीयाभ्यासः
आं महोदय अधः दत्तानि वाक्यानि परिशीलयतः तेषाम् इतरवचनयुक्तानि
वचनयुक्तानि
वाक्यानि रचयत
तत्र इतर नाम किम्
इतरवचनं बहु द्विवचनं बहुवचनम्
हा न न इतर नाम यत् न दत्तम् अन्यः इति अर्थः तावदेव अन्यः इतरः नाम अन्यः तावदेव
उदाहरणमस्ति सः अभाषत तौ अभाषेतां ते अभाषन्त उदाहरणम् अस्ति वयम् अवन्दामहे अहम् अवन्दे आवाम् अवन्दावहि वयम् अवन्दामहि
हा समीचीनं हा अस्तु अस्तु समीचीनम् इदानीं तत्र प्रिया भगिनी अग्रे
वयं ओ सोरि युवकौ अकम्पेताम् युवकः अकम्पत युवकाः अकम्पन्त
हा समीचीनं हा अस्तु गीताञ्जलि भगिनी अग्रे
त्वम् असहताः त्वम् असहताः युवाम् असहेथां यूयम् असहध्वम्
असहध्वं समीचीनम् अग्रे शोभा भगिनी
आं महोदय बालिकाः अवर्धन्त तत्र बहुवचने बालिका अवर्धत बालिके अवर्धेतां बालिकाः अवर्धन्त
हा समीचीनं भगिनि अस्तु अग्रे शुभदा भगिनी
युवाम् अशोभेतां त्वम् अशोभथाः यूयम् अशोभध्वम्
अशोभध्वं हा समीचीनम् उषा भगिनी अग्रे
आं महोदय अहम् ऐक्षे
हा तत्र ईक्षते पूर्वम् आसीत् खलु इदानीं तत्र अहम् ऐक्षे
किमर्थं महोदय ऐक्षे अपि ईक्षे एक समान अर्थः अस्ति न महोदय तत्र
ईक्षते इति पदस्य लङ्लकारः भगिनि अहम् ईक्षे अहम् ईक्षे इति लट् लकारे अहम् ऐक्षे इति लङ्लकारे
अहम् ऐक्षे अहम् आवाम् आवाम् ऐक्षा ऐक्षा वहि वयम् ऐक्षामहि
हा इति समीचीनं भगिनि हा अस्तु इदानीं वेदा भगिनी अग्रे
यूयम् असेवध्वम् यूयम् असेव बहुवचने दत्तमस्ति त्वम् असेवथाः युवाम् असेव असेव सेवेथां त्वम् असेव असेवेथां
त्वम् असेव
असेवथाः युवाम् असेव युवाम् असेवेथां यूयम् असेवध्वम्
हा समीचीनम् अस्तु अग्रे प्रिया भगिनी अग्रे
भवान् अलभत भवन्तौ अलभेतां भवन्तः अलभन्त
अलभन्त समीचीनं सुजाता भगिनी अग्रे
आवाम् अमन्यावहि अहम् अमन्ये वयम् अमन्यामहि
वयम् अमन्यामहि समीचीनम् अस्तु समीचीनम् अस्तु गीताञ्जलि भगिनी अग्रे
मम पुस्तके तु भवत्यः अरमन्त इति दत्तं
तदेव मम पुस्तके
अस्तु भवती अरमत वा अरमत
भवती अरमत
अरमत भवत्यौ
भवत् भवत्यौ
भवत्यौ अरमेतां भवत्यः अरमन्त इति एव
अरमन्त समीचीनं समीचीनम् अस्तु अग्रे तत्र उषा भगिनी अग्रिम अभ्यासः आरम्भं करोति वा
आं महोदय अधः दत्तानि वाक्यानि विधिलिङ्ग् विधिलिङ्गवाक्यत्वेन परिवर्तयत यथा छात्राः धार्मिकशिक्षां लभन्ते छात्राः धार्मिकशिक्षां लभेरन् इति विधिलिङ्ग् अस्ति
तत्र विद्यार्थे इदानीं तत्र सम्भावना इति न इदानीं तद् भवतु आज्ञा तत्र छात्राः धर्मशिक्षा धार्मिकशिक्षां लभेरन्
वयम्
एकनिमिष तदेव अस्ति तद् उदाहरणं नास्ति अस्तु छात्राः ओ अस्तु अस्तु तद् उदाहरणमेव अस्ति वा
आम् महोदय
परिवर्त्य विधिलिङ्गकारत्वेन परिवर्तयत अस्तु अग्रिमं करोतु तर्हि अस्तु
वयं राष्ट्रहिताय यतामहे इति कथं वयं राष्ट्रहिताय यतेमहि इति विधिलिङ्ग्
समीचीनं भगिनि वयं राष्ट्रहिताय यतेमहि समीचीनं भगिनि यतेमहि समीचीनम् अस्तु अग्रे नरेश महोदय
यूयं कदापि न स्पर्धद्वे स्पर्धद्वे यूयं कदापि न स्पर्धे ध्वम्
समीचीनं यूयं कदापि न स्पर्धे ध्वम् समीचीनम् अस्तु शोभा भगिनी अग्रे
शत्रवः भीत्या पलायन्ते तत्र बहुवचने पलायन्ते इति शत्रवः भीत्या पला तत्र पलाये तत्र विधिलिङ्ग वन्देरन् इति भवति पलायन्ते पलायेरन्
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 समीचीनं पलायेरन् शत्रवः भीत्या पलायेरन् अस्तु समीचीनं शुभदा भगिनी अग्रे
त्वं परीक्षायां विजयसे त्वं परीक्षायां विजयेथाः
विजयेथाः समीचीनं भगिनि अस्तु इदानीम् अग्रे सरामः तर्हि तत्र वेदा भगिनी अग्रे तत्र वाक्यं तत्र अग्रिम अभ्यासः
अत्र गुणत्रयात्मकस्य आहारस्य आवलिः दत्ता अस्ति तस्याः आधारेण सेव भुज कृ लभ इत्येषां धातूनां विधिलिङ्गरूपाणि इत्येतेषां धातूनां विधिलिङ्गरूपाणि योजयित्वा यथोदाहरणं वाक्यानि लिखत आहारः
तत्र उदाहरणमेकवारम्
उदाहरणं सः आरोग्यवर्धनम् आहारं सेवेत
तत्र विधिलिङ्गकारः विधिलिङ्गकारः अस्ति वा तत्र सेवेत विधिलिङ्गकारः अस्ति सेवेत अतः तत्र किं कृतमस्ति यत् आहारः दत्तमस्ति तत् उपयुज्य तत्र
वाक्यं
सेवते अथवा भुज् अथवा क्रु अथवा लब् इति धातुः तत्र तस्य धातोः उपयोगम् उपयोगं
कृत्वा
अपेक्षितः समीचीनम् अस्तु इदानीं तृतीयवाक्यं करोतु
तृतीयवाक्यम् अहं सात्विकं भोजनम् अहं सात्विकभोजनं अहं सेवेत न सेवेत न अहं सात्विकभोजनं सेवे सेवे न सेवेय वा सेवेय
सेवेय
अहं सात्विकभोजनं सेवेय
सेवेय समीचीनम् अस्तु अग्रे नरेश महोदय
महोदय अहं
तत् तत् कृतम् इदानीं सज्जनाः
सज्जनाः बलवर्धनः बलवर्धनः राजसः राजसः
न तत्र एकम् एकं किमपि एकं स्वीकृत्य कर्तुं
अस्तु बलवर्धनः सज्जनाः बलवर्धनः भोजनं भोजनं कुर्वामहे कुर्वेमहे
तत्र सज्जनाः इति अस्ति अतः पुरुषः कः
प्रथम कुर्वेरन्
कुर्वीरन् हा कुर्वीरन्
कुर्वीरन् सज्जनाः भोजनं बलवर्धनः बलवर्धनाय
बलवर्धनाय न न बलवर्धनम् एतत् सर्वं विशेषणम् अस्ति महोदय
ओ अस्तु सज्जनाः सज्जनाः बलवर्धनः भोजनं कुर्वीरन्
बलवर्धनं महोदय भोजनम् इति पदस्य विशेषणम् अस्ति बलवर्धनम् इति अतः तत्र
बलवर्धनं भोजनं कुर्वीरन्
कुर्वीरन् हा समीचीनं महोदय हा तादृशम् अस्ति अस्तु अग्रे प्रिया भगिनि
वयं तामसम् आहारं न लभेमहि
न लभेमहि हा वयं समीचीनं हा वयं तामसं हा भोजनं न लभे महि अस्तु लभेमहि समीचीनं हा अस्तु शुभदा भगिनी अग्रे
महोदय किमपि
स्वीकरणीयं खलु वाक्यं कर्तुं शक्नोति भगिनि
अस्तु अस्तु
किमपि एकं तत्र भोजनम् अथवा आहारम् उपयुज्य
अत्युष्णं भोजनं कदापि न भुञ्जीरन्
हा ताः ताः समीचीनं ताः अत्युष्णं भोजनं कदापि न भुञ्जीरन् भुञ्जीरन् इति एव अस्ति वा तत्र रूपं तत् समीचीनम् एव इति न जानामि अतः पृच्छामि
तावत्
अस्तु अस्तु धन्यवादः भगिनि हा हा तत्र यतोहि साधारणं नास्ति खलु कुर्वीरन् इति तु अस्ति कुर्वीरन् इति जानामि अतः भुञ्जीरन् इति प्रायश सम्यक् एव अस्ति
तत्र कर्तुपदस् कर्तुः आवश्यकता नास्ति खलु तत्र किमपि नियमरूपेण यदि वयं वक्तुम् इच्छन्ति तथा तदा अत्युष्णं भोजनं कदापि न भुञ्जीरन् इति वयं वक्तुं शक्यते
हा सत्यं भगिनि कर्तुपदस्य
कोऽपि
सत्यं सत्यं हा सर्वे अपि न भुञ्जीरन् तत्र अथवा सत्यं भगिनि सत्यं भगिनि
कर्तृरूपं तु दत्तमस्ति त्वं
किन्तु तत्र न इति अस्ति अतः तत्र अन्यत् कर्तृपदं बहुवचने अस्ति चेदपि क्लेशः नास्ति इति शुभदा भगिनी वक्तुम् इच्छति तावदेव अस्तु ताः इति स्थाने बहुवचने अस्तु अग्रे वेदा भगिनी
हा महोदय
ओ भवती उक्तवती खलु तत्र अहमिति उक्तवती क्षम्यताम् अस्तु उषा भगिनी उक्तवती वा
न महोदय
हा अस्तु हा युवाम् इति
युवां स्वीकरणं अस्तु युवां प्रीतिवर्धनः भोजनं मां भुञ्जीयाथाम्
किं किं किं
युवां प्रीतिवर्धनः
किन्तु तत्र भोजनम् इति पदस्य विशेषणम् अस्ति भगिनि एतत् सर्वम् अथवा आहारम् इति पदस्य विशेषणम् अस्ति
यदि प्रीतिवर्धनः उपयुज्य
किन्तु भोजनम् इति अस्ति अतः तत्र
प्रीतिवर्धनम्
प्रीतिवर्धनम् इति रूपं भवति
युवां प्रीतिवर्धनं भोजनं मा भुञ्जीयाताम्
मा भुञ्जीयाताम्
तत्र
अस्तु तत्र दृष्ट्वा वदति वा अस्तु
न महोदय भुञ्जीत भुञ्जीयातां भुञ्जीरन् भुञ्जीयाथां भुञ्जीय भुञ्जीवहि भुञ्जीमहि इति अस्ति
अस्तु समीचीनम् अस्तु समीचीनं किन्तु मध्ये किमर्थं मा इति उक्तवती
प्रीतिवर्धनः आरोग्याय न उचितं महोदय
इति वा
महोदय यदि लड्डु रस्मलाय
ओ अस्तु
खादनेन आरोग्यम् आरोग्याय
अस्तु भगिनि अस्तु धन्यवादः हा अस्तु अस्तु समीचीनम् अस्तु अग्रे गीताञ्जलि भगिनि गीताञ्जलि भगिनि अस्ति वा
सर्वत्र भिन्ना अस्ति महोदय
अस्तु अस्तु किमपि यदस्ति तदुपयुज्य वदतु भगिनि
अत्र अस्तु भवान् आत्मनि एव रमेत इति दत्तम् भवान् आत्मनि एव रमेत भवान् भवन्तौ आत्मनि एव भवन्तौ आत्मनि एव रमेयातां भवन्तः आत्मनि एव रमेरन् वा
तत् समीचीनमेव भवति भगिनि तत्र तु अस्तु अस्तु किन्तु यत् अस्मिन् पुस्तके दत्तं तदेव उपयुज्य वयं कर्तुं शक्नुमः यतोहि तत्र नूतनपुस्तकम् अस्माकं समीपे नास्ति अस्तु अग्रे शोभा भगिनि
आं महोदय तत्र आवां आवां तत्र वृक्षः इति दत्तं दृष्टवती महोदय वृक्षः इत्युक्ते अस्ट्रिञ्जेण्ट् रफ् हार्श् इति अस्ति आवां वृक्षम् आहारं न आवाम् इति अस्ति अतः न स्वीकुर्वी वहि तत्र विधिलिङ्ग् आत्मनेपदी क्रू धातुः कुर्वीता इति भवति महोदय कुर्वीता कुर्वीयातां कुर्वीरन् इति उत्तमपुरुषे
उत्तमपुरुषे किम् अस्ति कुर्वीया
कुर्वी वहि कुर्वी मही इति अस्ति
अस्तु अस्तु
कुर्वः तत्र अहम् आवां वयम् आवां स्वीकुर्वी वहि इति भवति महोदय
कुर्वे वहि
अस्तु अस्तु समीचीनं भगिनि प्रश्नः अस्ति वा तत्र तस्मिन् विषये अस्मिन् विषये
कुर्वे वही वा कुर्वा वहीय किं वदति
कुर्वी वही
कुर्वे कुर्वी वहि कुर्वी वहि
कुर्वे वहि न
कुर्वी कुर्वी आवाम् इति आवाम् अतः अस्तु अत्र
आत्मनेपदी क्रू धातुः तत्र भिन्न धातुः अस्ति भगिनि कुर्यात् इति किं तत्र कर्तरि कुर्वीता इति भवति कुर्वीया कुर्वी वहि कुर्वी महि इति भवति
करेक्ट्
अस्तु समीचीनम् अस्तु तत्र अग्रे तत्र सुजाता भगिनी भवत्याः पुस्तके अपि तत्र नूतनमेव स्यात्
नास्ति महोदय
अतः तत्र यद् अस्ति तत्
मम पुस्तके अस्ति वो एकवचनम् अस्ति वो बहुवचनरूपान्तरं कुरुता
अस्तु तदेव करोतु भगिनि अस्तु यदस्ति तत् करोतु एकं
त्वं
विधिलिङ्गलकारं भवेत् विधिलिङ्गलकारः भवेत्
त्वम् उच्चैः भाषेथाः बहुवचनमस्ति यूयम् यूयम् उच्चैः भाषेध्वम्
भाषेध्वम् भाषेध्वं समीचीनं भगिनि अस्तु तर्हि तत्र प्रायशः एतत् अन्यत् सर्वं वयं कर्तुं शक्नुमः अस्तु तत्र प्रायशः तत्र केवलं धातु तत्र सेवते लभते इति एव अस्ति अस्तु तर्हि किञ्चित् अग्रे सरामः तर्हि अग्रे तत्र एतावत् तत्र किम् अस्तु नरेश् महोदय अग्रे पठति वा तत्र सुभाषितम् एतत्
एते सुभाषिते पठत
प्रथमं
गते शोकं न कुर्वीत भविष्यं नैव चिन्तयेत् वर्तमानेषु कालेषु वर्तयन्ति विचक्षणाः
अस्तु तत्र कुत्र कुत्र विधिलिङ्गकारः अस्ति
कुर्वीत चिन्तयेत् अस्ति परन्तु परस्मैपदी अस्ति
समीचीनं समीचीनं महोदय चिन्तयेत् इति परस्मैपदी धातु चिन्तयति इति तस्य चिन्तयेत् कुर्वीत कुरुते इति आत्मनिपदी धातूनां धातु धातोः तत्र विधिलिङ्गकारः समीचीनं इदानीं तत्र अस्तु तत्र प्रथम भागं स्वीकरोतु तत्र गते शोकं न कुर्वीत इति अर्थः कः
गते शोकं न कुर्वीत शोकं न कुरु गते
तत्र कुर्वीत तत्र किं भवति तत्र
मा कुरु
मा कुरु तत्र किं भवति गते गते नाम भूतकाले यत् अभवत्
यत् अभवत्
ह्यः परह्यः यद् अभवत् तस्मिन् विषये शोकं मास्तु मास्तु तत्र न कुर्वन्ति
भविष्यं नैव चिन्तयेत्
भविष्यविषये
अपि चिन्तां मा करोतु
चिन्ता मास्तु चिन्ता मास्तु इति समीचीनं महोदय अस्तु अग्रे तत्र अग्रे प्रिया भगिनी द्वितीयवाक्यं
वाक्यं भविष्यतः अत्र तत्र वा द्वितीयसुभाषितं
न न सुभाषितवाक्यमेव तत्र वर्तमानेषु कालेषु इति
ओ अस्तु अस्तु वर्तमानेषु कालेषु वर्तयन्ति विचक्षणाः विचक्षणाः इत्युक्ते ये बुद्धिमन्तः मनुष्याः सन्ति ते भूतकाल अपि च भविष्यत्काले विषये न चिन्तयति ते तस्य ते केवलं वर्तमानकालस्य विषये एव चिन्तयन्ति एतदेव एतत् वदति
सत्यं सत्यं तत्र वर्तमानेषु कालेषु तत्र वर्तमानेषु कालेषु तत्र विशेषणविशेष्यभावः अतः सप्तमी द्वयोद्वयस्य तत्र वर्तमानेषु अपि सप्तमी कालेषु अपि सप्तमी तत्र विचक्षणाः वर्तयन्ति कुत्र वर्तयन्ति कालेषु वर्तमानेषु कालेषु एव वर्तयन्ति समीचीनम् अपि इदानीं तत्र अधोभागे तत्र अर्थः दत्तः तदपि एकवारं पठतु भगिनि
अस्तु महोदय बुद्धिमता पुरुषेण गतः विषयः न चिन्तनीयः भविष्यतः विषयेऽपि न चिन्तनीयं तेन वर्तमानकालविषये एव चिन्तनीयं व्यवहर्तव्यं च
इदानीं तत्र केवलं तत्र कर्मणि रूपे दत्तमस्ति तत्र बुद्धिमता पुरुषेण इति तत्र कर्तृपदस्य तृतीया विभक्ति हा अपि चिन्तनीयः
विषयः चिन्तनीयः अत्र
अतः पुल्लिङ्गे अतः पुल्लिङ्गे समीचीनं किन्तु तत्र अग्रे तत्र भविष्यतः विषये अपि न चिन्तनीयं तत्र तत्र हा तत्र कर्मपदमेव नास्ति तत्र विषये अपि न चिन्तनीयं केवलं न चिन्तनीयम् इत्येव अस्ति तेन तेन इत्युक्ते केन
ये बुद्धिमता पुरुषेण
हा बुद्धिमता पुरुषेण केवलं वर्तमानकालविषये एव चिन्तनीयं व्यवहर्तव्यं व्यवहारं करणीयम् इति व्यवहर्तव्यं च इति हा समीचीनं भगिनि अस्तु अतः अस्तु अत्र एतत् सुभाषितं पठितम् इति अस्तु अग्रे सरामः तर्हि अग्रे तत्र शोभाभगिनी अग्रे पठति वा अग्रिम सुभाषितम्
आं महोदय श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चाप चापराह्णिकं न हि प्रतीक्षते मृत्युः कृतम् अद्य न वा कृतम्
प्रथमभागः अस्ति तं स्वीकरोतु भगिनि
आं महोदय श्वः कार्यम् अद्य कुर्वीत यत् श्वः करणीयम् अस्ति तत् अद्य एव सर्वे कुर्वन्तु पूर्वाह्णे च अपराह्णिकं तत्र पूर्वमेव अपरं किमपि तत्र अपराह्णम् इत्युक्ते शेषकालम् इति अर्थः अर्थं दत्तम् इत्युक्ते नन्तरम् इति नन्तरं यत् करणीयमस्ति
तत्र अपराह्णे नाम आफ्टर्नून् इति तत्र अपराह्णे
तदपि मध्याह्न अपराह्न इति अस्ति किल महोदय
सत्यं सत्यं तत्र आनिकम् इति अस्ति आनिकम् इति तत्र अतः तत्र मध्याह्ने
एक अवधिः इति अस्ति
अवधिः सत्यं सत्यं
अवधिः यत् अपरम् अस्ति तत्र पूर्वं पूर्व तत्र अण्णः इति अस्ति अण्णः पूर्वाह्णः पूर्वाह्णे अथवा अपर पर अण्णः इति अतः तत्र परं करणीयं पूर्वमेव
यत् यत् अग्रिम आह्णे करणीयम् अस्ति
तत्र अहं चिन्तितवती महोदय परं किमपि करणीयमस्ति तत् अधुना एव इदानीमेव कुर्वन्तु प्रतीक्षां न कुर्वन्तु इति करणीयमस्ति
तत्र सत्यं भगिनि किन्तु तत्र साक्षात् किं दत्तम् अस्ति चेत् तत्र परानिकं नाम यत् पर अने पराणे यत् करणीयमस्ति अपराणे यत् करणीयमस्ति तत् पूर्वाणि एव करोतु तत्र पूर्वमेव
पूर्वकाले
पूर्वकाले एव करोतु समीचीनं तत्र पूर्वाणि च अपराणिकम् अत्र कुर्वीत इति एव तत्र विधिलिङ्गे अस्ति अस्तु समीचीनं समीचीनं
अस्तु धन्यवादः
समीचीनं भगिनि अस्तु अग्रे तत्र शुभदा भगिनि अग्रे द्वितीयभागं करोति वा तत्र अस्तु प्राशस नास्ति इति मन्ये अस्तु गीताञ्जलि भगिनि
अस्तु महोदय न हि प्रतीक्षते मृत्युः कृतम् अद्य न वा कृतम् न हि प्रतीक्षते मृत्युः इत्युक्ते मृत्युः न हि प्रतीक्षते कृतम् अद्य न वा कृतम् कृतम् अद्य न वा कृतम् इत्युक्ते अधुना एव
अधोभागे अधोभागे यदस्ति तदपि
पठामि महोदय. श्वः करणीयं कार्यं बुद्धिमान् अद्यैव कुर्यात्. अपराह्णे करणीयं कार्यं पूर्वाह्णे एव कुर्यात्. यतः मृत्युः अनेन एतत् कार्यं कृतम् अस्ति न वा इति न प्रतीक्षते.
तत्र यदि कार्यं न समापितं, यदि कार्यं न समापितं तत्र मृत्युः किं दृष्ट्वा, अस्तु कार्यं न समापितम् इति दृष्ट्वा तत्र प्रतीक्षां करोति वा मृत्युः? अतः न करोति, अतः
मृत्युः न हि प्रतीक्षते.
अद्य यदि कृतं वा न वा कृतम् इति तत्र न प्रतीक्षते मृत्युः, न एव नैव प्रतीक्षते मृत्युः. अतः अतः श्वः करणीयं कार्यं
शीघ्रमेव
कार्यं सर्वाणि कार्याणि करोतु, कुर्मः कुर्म वयं सर्वे सर्वाणि कार्याणि शीघ्रमेव कुर्म इति. अस्तु समीचीनं भगिनि. अस्तु अस्तु अग्रे तत्र श्लोकद्वयमस्ति, तत्र प्रायशः किञ्चित् एकवारं पठामः तदनन्तरं पश्यामः यद् तत्र अवगन्तुं शक्नुमः न वा इति. अस्तु तत्र अग्रे सुजाता भगिनी अग्रे पठति वा तत्र?
आं महोदय पठामि, एक्स्प्लेन् तु
न शक्नोमि. एकवारं पठामः.
तानि सर्वाणि संयम्य युक्त आसीत मत्परः वशे हि यस्येन्द्रियाणि तस्य प्रतिष्ठिता.
ओ अस्तु भगिनि, अत्र मम पुस्तके अन्यत् अस्ति. तत्र संख्या किं का दत्ता भगिनि संख्या?
द्वितीयाध्याये 61 श्लोक.
अस्तु अस्तु 261. अस्तु भगिनि अस्तु अतः तत्र मम पुस्तके 261. अस्तु भगिनि अस्तु मम पुस्तके अन्यत् अस्ति. अस्तु तत्र वेदा भगिनी भवती तत्र पठति वा, भवत्याः पुस्तके यदस्ति?
योगी युञ्जीत सततमात्मानं रहसि स्थितः. योगी युञ्जीत सततमात्मानं रहसि स्थितः एकाकी यत चित्तात्मा निराशीरपरिग्रहः. निराशीरपरिग्रहः षष्ठमे अध्याये दशमश्लोकः अस्ति.
अत्र विधिलिङ्गकारः अस्ति वा भगिनि?
योग योगी युञ्जीत
युञ्जीत
युञ्जीत तत्र विधिलिङ्गकारः अस्ति युञ्जीत
स्थितः एकाकी.
अतः तत्र अत्र एतत् तत्र प्रायश तत्र निराशी निराशीर परिग्रहः. अस्तु तत्र प्रथमभागस्य किञ्चित्
अपरिग्रहः वा तत्र?
सत्यं भगिनि, सत्यं सत्यं भगिनि, तदेव अस्ति. समीचीनम्. अस्तु तत्र अस्तु तर्हि प्रथमभागः तत्र योगी योगी युञ्जीत योगी युञ्जीत इति अस्ति. तत्र युञ्जीत क्रियापदम् अस्ति.
योगी
भवती एव उक्तवती तत्र युञ्जीत किं भवति?
युञ्जीत योगी युञ्जीत सततमात्मानं रहसि स्थितः.
युञ्जीत अन्य कोऽपि वदति वा तत्र युञ्जीत इति किम् अस्ति?
युञ्जीत विधिलिङ्गकारे प्रथमपुरुषे एकवचनं वा?
विधिलिङ्ग
विधिलिङ्गकारे सोरि
समीचीनं समीचीनं यथा कुर्वीत आसीत् कुर्वीत आसीत् खलु तत् योगी युञ्जीत बीजलिङ्गकारः समीचीनं योगी युञ्जीत
युञ्जीत
योगी इति कर्तृपदं युञ्जीत इति क्रियापदम् इदानीं प्रश्नः किं न अतः किं युञ्जीत
किं युञ्जीत रहसि स्थितः वा
न न कर्मपदं विभ कर्मपदस्य विभक्ति का कर्मपदस्य
कर्मपदं आत्मानं
आत्मानं अतः योगी आत्मानं युञ्जीत केवलं तत्र अद्य अद्य युञ्जीत योगी आत्मानं युञ्जीत अद्य युञ्जीत किन्तु श्वः न युञ्जीत इति न योगी सततं
आत्मानं
युञ्जीत योगी आत्मानं सततं युञ्जीत सर्वदा सर्वदा युञ्जीत कुत्र कुत्र सः युञ्जीत सः स्थितः कुत्र स्थितः रहसि रहस्यस्थले तत्र अनेके जनाः सन्ति तेषां पुरतः स्थित्वा युञ्जीत न किन्तु रहसि स्थितः सः तत्र वने वा अथवा तत्र गृहे वा किन्तु तत्र रहसि स्थितः योगी तत्र सततम्
आत्मा
तत्र आत्मानम् आत्मानं सततं युञ्जीत इति अस्ति अस्तु तत्र एकाकी यतचित्तात्मा
निराशीः अपरिग्रहः
तत्सर्वं किं भवति तत्र विशेषणम् इति चिन्तयामि योगी इति पदस्य रहसि स्थितः योगी एकाकी योगी
एकाकी योगी यत चित्तात्मा इत्युक्ते किमर्थं यतचित्तात्मा
तत्र अस्तु तत्र अग्रिम अग्रिमवर्गे पश्यामः तत्र किम् अस्ति इति समीचीनमेव अस्ति भगिनि किन्तु विशेषणं विशेषणानि इति चिन्तयामि अहम् अस्तु अस्तु तर्हि अस्तु तर्हि तत्र सुजाता भगिनी भवती एव तत्र अन्ते शान्तिमन्त्रं वदति वा भगिनि
आं महोदय ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः तत्सत् हरि ओम् श्रीगुरुभ्यो नमः धन्यवादः महोदय
धन्यवादः भगिनि सर्वेभ्यो नमः धन्यवादः